अथ कल्कीकृतं शिवस्तोत्रं गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषं त्र्यक्षं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्षं योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूलधानमीशं जटाजूटाटोपरिक्षिप्तभावं महाकालं चन्द्रभालं नमामि श्मशानस्थितं भूतवेतालसङ्गं नानाशस्त्रैखड्गशूलाधिभिश्च व्याघ्रात्युग्राबाहवो लोकनाशे यस्य क्रोधोद्भूतलोकोस्तमेति यो भूतादिपञ्चभूतैः सिसृक्षुस्तन्मात्रात्मा कालकर्मस्वभावै प्ररित्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तन्नमामि स्थितौ विष्णु सर्वजिष्णु सुरात्मा लोकान् साधून् धर्मसेतून् बिभर्ति ब्रह्माद्यंशे योऽभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि यस्याज्ञया वायवो वान्ति लोके ज्वलत्यग्नि सविता याति तप्यन् शीतांशुके तारका सङ्ग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये यस्य श्वासात् सर्वधात्री धरित्री देवो वर्षत्यम्बुकालप्रमाता मेरुर्मध्ये भुवनानाञ्च भर्ता तमीशानं विश्वरूपं नमामि इति श्रीकल्कीपुराणे कल्कीकृतं शिवस्तोत्रं सम्पूर्णम्।